గణపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్నో దేభ్యసేదసాదనం ప్రణో దేవీ సరస్వతే వాజేభిర్వాజినీవతే ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోతగిషపే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః. యాత్రయిషు శివతమా శివం బభూవతే ధనుః. శివాచరవ్యాయాతవతయా నో రుద్రమృడయా. యాతే రుద్ర శివా తనోరఘోరా పాపకాశిని. తయానస్తను వాశంతమయా గిరిశంతాభిజాగసీ. యామిషుం గిరిశంత హస్తేభిభర్ష్యస్తవే. శివాంగిరిత్రతాం కురుమాగిగుంధీ పురుషం జగత్. శివే నవచసా త్వా గిరిశాచ్ఛా వదామసి. యథా సర్వమిజ్జగత యక్ష్మగుం సుమనాసత్. అద్య వోచదది వక్తా ప్రథమో దేవ్యో విశక్. అహే గచ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః. అసవ్యస్తామ్రో అరుణ ఉత బభ్రుత్సు మంగళః. ఏ చే భాగం రుద్రా అపితో దిక్షుశ్రితాత్సవస్రశో వైశాగం హేడగే మహే. అసవ్యోపసర్పతి నీలగ్రీపో విలోహితః. ఉతైనం గోపా అదృశన్నదృశన్నుదహాద్యః. ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాదినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీషుషే. అధోగే అస్య సత్వానోహం దేభ్యో గరం నమః. ప్రముంచ ధన్వనస్త్వముభయోర్రాత్రియోర్జాం. యాశ్చ దేహస్త ఇషవపరాతా భగవో వప. అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు ధే. నిషేధ్య శల్యాణా ముఖా శివో న సుమనాభవ. విద్యం ధను కపర్దినో విశల్యో బాణవాగుం ఉత. అనేశన్నస్యేషవ ఆభురస్య నిశం గతిః. యాదేహేతర్మే దుష్టమహస్తే బభూవతే ధనుః. తయాస్మాన్ విశ్వతత్వమయక్ష్మయా పరిభుజ. నమస్తే అస్వాయుధాయానాతతాయ దృష్టవేకే. ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే. పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః. అఘోయగిషుదిస్తవారే అస్మన్నిధేహితం. నమస్తే అస్తు భగవన్విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమ సత్యంజలాయత్యషేమతే పదేనాం పతయే నమో నమో బబ్లుషాయ విద్యాదినేన్నానాం పతయే నమో నమో హరికేశాయోపవేదినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తథా వినేక్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివత్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే భక్తీనాం పతయే నమో నమ కృష్ణవేతాయ ధావతే సత్వనాం పతయే నమః నమః సగమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుభాయ నిషంగిణేస్తేనానాం పతయే నమో నమో నిషంగిణయిషుధిమతే తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతేస్తాయూనాం పతయే నమో నమో నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమ శ్రికావిభ్యోజిగాగం సద్భ్యోముష్ణతాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం జరద్భ్య ప్రక్రంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ గిషు మధ్యోదన్వాభిభ్యశ్చ వో నమో నమ ఆదన్వానేభ్య ప్రదిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ తిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యసభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీకేభ్యో విభిద్యందేభ్యశ్చ వో నమో నమ ఉగణాభ్య త్రిగంహతేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో నమో వ్రాతేకేభ్యో వ్రాతపదిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేకేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహేతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కురాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ యిషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వ ಸ್ವಾನಿಭ್ಯಶ್ಚವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಚರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲ ಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಪ್ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀದುಷ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವಕ್ಷೇಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ
ಸಂವೃದ್ಧನೇ ಚ ನಮೋ
ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚ ಚಿರಾಯ ಚ ನಮಃ ಚೇಗ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮಃ ಓರ್ಭ್ಯಾಯ ಚ ವತ್ಸನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೇಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸದ್ಯಾಯ ಚ ನಮೋ ಯಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವಲ್ಯಾಯ ಚ ಘಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷ್ಯಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇನಾಯ ಚ ಶುರಧಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚ ವಬಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರೋಧಿನೇ ಚ ನಮೋ ಭಿಲ್ಮಿನೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಖನನ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷುಧಿಮತೇ ಚ ನಮಃ ತೇಷ್ಣೇಷವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಕೃತ್ಯಾಯ ಚ ಪಥ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋದ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಷಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವಶ್ಯಾಯ ಚ ವಶ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ಮೇಘ್ಯಾಯ ಚ ನಮಃ ಇಂದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ತಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ವಧಾಯ ಚ ದೂರೇ ವಧಾಯ ಚ ನಮೋ ಹಂದ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯೋ ನಮಃ ತಾರಾಯ ನಮಃ ಶಂಭವೇ ಚ ಮಯೋ ಭವೇ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ತೀರ್ಥ್ಯಾಯ ಚ ಕೋಲ್ಯಾಯ ಚ ನಮಃ ಪಾದ್ಯಾಯ ಚ ವಾದ್ಯಾಯ ಚ ನಮಃ ಪ್ರತರಣಾಯ ಚೋತ್ತರಣಾಯ ಚ ನಮಃ ಆದಾದ್ಯಾಯ ಚ ನಾದ್ಯಾಯ ಚ ನಮಃ ಚಕ್ಷ್ಪ್ಯಾಯ ಚ ಭೇನ್ಯಾಯ ಚ ನಮಃ ಸಿಕತ್ಯಾಯ ಚ ಪ್ರವಾಕ್ಯಾಯ ಚ ನಮಃ ಹಿರಣ್ಯಾಯ ಚ ಪ್ರಪತ್ಯಾಯ ಚ ನಮಃ ಕಿಗುಂಶಿರಾಯ ಚ ಶಗನಾಯ ಚ ನಮಃ కపర్దినే చ పులస్తగే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమస్తల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ జగహ్వరేష్ఠాయ చ నమో హృదయ్యాయ చ నివేష్ట్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్జ్యాయ చ సూర్మ్యాయ చ నమః పర్ణ్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చ భిగ్నతే చ నమః ఆఖిదతే చ ప్రఖిదతే చ నమో వత్కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విజిన్వత్కేభ్యో నమః ఆనిర్హతేభ్యో నమ ఆమీవత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణామేషాం పశూనాం మాభేర్మారో మోగేషాం కించ నామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాస భేషజే శివా రుద్రస్య భేషజేతయా నో మృడ జీవసేకే ఇమాగుం రుద్రాయ తవసే కపర్దినే క్షయద్వీరాయ ప్రవరామహే మతిం యథా నశ్యమసద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం ప్రిడానో రుద్రోతనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం చ యోచ్చమనురాయ జే పితా తదస్యామ తవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామాన తనువో రుద్రదేర్షః మానస్తోకేతనయే మాన ఆయుషి మానో గోషు మానో అశ్వేషు దీర్షః వీరాన్మానో రుద్రభామితో వదేర్హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోఘ్నముత పూరుషగ్నే క్షయద్వీరాయ సుం నమస్మేతే అస్తు రక్షాజనో అది చ దేవ బ్రోగ్యతా చ నశర్మ యచ్చ ద్విపరుహాకా సుఖిశ్రుతం గత్త సతం యువానం మృగన్న భీమముపహత్రుముగ్రం మృడా జరిద్రే రుద్రస్తవానో అన్యందే అస్మన్నివ బంధు సేనాకా పరిణో రుద్రస్య హేతృణక్తు బలిత్వేషస్య దుర్మదిరఘాయో అవస్థిరామగవద్భ్యస్తనుష్మీర్వత్తోకాయతనయాయ మృడయా మేధుష్టమధిపతమశివో నత్తుమనాభవా పరమే వృక్ష ఆయుధం నిధాయ కృత్యం వదా నమాచర పినాకం బిభ్రదాగహే వికిరిత విలోకిత నమస్తే అస్తు భగవః యాస్తే సహస్రగం హేతయోన్యమస్మన్నివ బంధుతాః సహస్రాణి సహస్రదా బాహువోత్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతే సహస్రాణి సహస్రశో యే రుద్రాదిభూమ్యా తేషాగుం సహస్రయోజనే వధన్వాని దన్మధే అస్మిన్ మహత్యర్ణవేందరిక్షే భవా అధే నీలగ్రీవాశితికంఠా చర్వా అధః క్షమాచరాః నీలగ్రీవాశితికంఠాదివగుం రుద్రా ఉపశ్రితాః ये वृक्षेषु तस्मिञ्जदानीलग्रीवा विलोहिताः ये भूतानामधिपतयो विजिगासक्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पताम्पतिरक्षय ऐलवृदायव्युदः ये तीर्थाणि प्रजलन्ति शृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुन्तश्च दिशो रुद्रापितस्थिरे तेषागुन्तकत्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् ये अन्तरिक्षे ये दिविगेशावन्न पातो वरुषमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणादश प्रतीचेर्दशोदीचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् दिष्मो यस्य नो द्वेष्टितम् वोजम् भेद त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतागात् यो रुद्रो अग्नव्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमत्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवेत्स्वाहा मृत्यवेत्स्वाहा प्राणानाम् ग्रन्थिरतिरुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यत्सुषस्सु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे गे विश्वभेगे सजोयगो शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा बद्धन्तु वाङ्गिरः द्युम्नैर्वाचेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे भेतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुच्च मे चित्तम् च माधेतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जयेष्ट्यम् च माधिपत्यम् च मे मन्युश्च मे वामश्च मे मश्च मे मश्च मे देमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे द्राकुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनं च मे वचश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सोक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे कृप्तं च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौ मनसश्च मे भद्रं च मे
श्रेयश्च मे वश्यश्च मे
यशश्च मे भगश्च मे द्रविणं च मे गन्धा च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोच्च मे प्रसोच्च मे क्षीरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओच्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृशिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भोग्यश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे शुच्च मे ब्रेहयश्च मे गवाकाश्च मे माशाश्च मे तिलाकाश्च मे मुद्गाश्च मे खल्वाकाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च म अग्निश्च मापश्च मे विरुधश्च म औषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च म अर्थश्च महेमश्च महितिश्च मे गतिश्च मे अग्निश्च महीन्द्रश्च मे सोमश्च महीन्द्रश्च मे सविता च महीन्द्रश्च मे सरस्वती च महीन्द्रश्च मे पूषा च महीन्द्रश्च मे बृहस्पतिश्च महीन्द्रश्च मे मित्रश्च महीन्द्रश्च मे वरुणश्च महीन्द्रश्च मे त्वष्टा च महीन्द्रश्च मे धाता च महीन्द्रश्च मे विष्णुश्च महीन्द्रश्च मे श्रिणौ च महीन्द्रश्च मे मरुतश्च महीन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च महीन्द्रश्च मेऽन्तरिक्षं च महीन्द्रश्च मे योश्च महिन्द्रश्च मे दिशश्च महिन्द्रश्च मे मूर्धा च महिन्द्रश्च मे प्रजापतिश्च महिन्द्रश्च मे अगुंसश्च मे रश्मिश्च मे धाभ्यश्च मे द्रिपदिश्च म उपागु सुश्च मेन्दर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्देज म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदुग्रहाश्च मे दिग्राज्ञाश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माघेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे वाग्निपदश्च मे हार्योजनश्च मे इत्पश्च मे बर्हिश्च मे वेदिश्च मे धिष्ठयाश्च मे ध्रुजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपलवाश्च मे दृषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे बोधभृश्च म आधवनीयश्च म आग्नेर्धम् च मे अविर्दानम् च मे गृहाश्च मे सदश्च मे प्रोडाशाश्च मे पचदाश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे चत्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तावृश्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे मृतम् च मे होरात्रयोर्वृष्ट्या बृहद्रलम् धरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दृत्यवाच्च मे दृत्यौ हे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हे च मे पष्टवाच्च मे पष्टौ हे च म उक्षा च मे भषा च म ऋषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे त्रिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मगेकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे चत्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे पाजश्च प्रसवश्चाभिजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नेयश्चान्यायनश्चान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च इदा देवहोर्मनुर्यज्ञने बृहस्पतिरुद्दामदानि च गुंसि च विश्वे देवासोपोटवाच
मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यातगम् दुःश्रोजेण्या मनुष्येभ्यत्तम् मा देवा अवन्तु शोभाय पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छयोरावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो वृत्वा अच्युतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् हुतामृतत्वस्येषानः यदन्येनातिरोहति एतावानस्य महिमा अतो जायागश्च पौरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यावृतम् दिवे त्रिपादोद्वौदैपुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्माद्विराणजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भो विमतो पुनः यत्पुरुषेण हविषा देवायज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्दविः सप्तास्यासन् परिदयः त्रिसप्त सविदकृताः देवायज्ञज्ञम् तन्वानाः अवध्नन् पुरुषम् पशुम् तञ्यज्ञम् वरेषि प्रोक्षन्न पुरुषम् जातमग्रदः तेन देवा अयजन्त साध्यर्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संभृतम् वृषदाज्यम् अशोकस्तागश्चक्रे वा यज्ञान आरण्याम् ग्राम्यास्य ये तस्माद्यज्ञात् सर्वहुतः रुचः सामानि जग्निरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चो भयादतः गावोह जज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यददुः करिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो कावोरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यकृतः ओरो तदस्य यद्वैष्यः त्वद्भ्यागुम् शूद्र अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रेष्ठोऽद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यतेनः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृतय भवति नान्यः पन्थायनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्य सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृतय भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आदपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे एष्यते लक्ष्मीस्य पत्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाना अवम् मनिषाना सर्वम् मनिषाना तच्छयो रावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ओ शान्ति शान्ति
शान्ति शान्तिः ॐ अथ त्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणाहतः कृमेनागुं राजा अप्येषागस्तपतिर्हतः अधो माधातो पिता अधो स्थूरा अधो क्षुद्रा अधो कृष्णा अधो श्वेता अधो आशातिका हता श्वेता विस्सह सर्वे हताः आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमयमस्य जम्भयो आदधामि तथा हि तत् खण्भण्वसे ओ शान्ति 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 ॐ शन्नो मित्रश्यं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मादि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शेक्ष्याम् व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तश्रेक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अदाथ स्वगुंहिताय उपनिषदम् व्याकाख्यास्यावः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिप्रजमध्यात्मम् तामहासगुंहिता गित्या चक्षते अधालोकम् पृथिवेपोर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अधातिज्योतिषम् अग्निपोर्वरूपम् आदित्यमुत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अधातिविद्यम् आचार्यपोर्वरूपम् अन्ते वाच्युत्तररूपम् विद्यासन्धिः प्रवचनगुंसन्धानम् इत्यधिविद्यम् अथाधिप्रजम् मातापोर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगुंसन्धानम् इत्यधिप्रजम् अदाध्यात्मम् अदराहनुपोर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुंहिताः यगेव मेता महासगुंहिता व्याख्याता वेद सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यच्छन्दसा वृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृताकात् सम्भवोव समेन्द्रो मेधयाकात् कृणोतु अमृतस्य देवधारणो भूयासम् चरेरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाकाभ्याम्बोरिविश्रुवम् ब्रह्मण कोशोऽसि मेधया विहितः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणाचीरमात्मनः वासागुंसि मम गावस्य अन्नपाने च सर्वदा ततो मे श्रियमापः लोमशाम् पशुभिः सह स्वाहाका आमायन्दु ब्रह्मचारिणः स्वाहाका विमायन्दु ब्रह्मचारिणः स्वाहाका प्रमायन्दु ब्रह्मचारिणः स्वाहाका दमायन्दु ब्रह्मचारिणः स्वाहाका शमायन्दु ब्रह्मचारिणः स्वाहा यशोजने सा निःस्वाहा श्रेयान्वस्य सोऽसा निःस्वाहा तन्त्वा भगप्रविशा निःस्वाहा समा भगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहम् त्वयि मृजे स्वाहा यतापप्रवतायन्ते यथा वासागहर्जरम् एवम् माम् ब्रह्मचारिणः धातगायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाबाहि प्रमापद्यस्वा भूर्भुवः सुपरिति वागेतात् तिस्रोऽव्याहृदयः तासामुहस्मैताम् चतुर्थीम् माहातमस्य प्रवेदयते महगिते तद्ब्रह्मा स आत्मा अङ्गान्यन्ना देवताः भूरिति वा अयम् लोकः भुवगित्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुवगिति वायुः सुवरित्यादित्यः महगिति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योतिगुंसि महीयन्ते भूरिति वारुचः भुवगिति सामानि सुवरिति यजोगुंसि महगिति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुवगित्यपानः सुवरितव्यानः महायित्यन्नम् अन्नेन वाप सर्वे प्राणामहीयन्ते तावागेताश्चतस्रश्चतुर्थाश्चतस्रश्चतस्रोऽव्याहृदयः तायो वेद स वेद ब्रह्म सर्वे स्मै देवा बलिमा वहन्ते स यगेशोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतोऽधिरण्मयः अन्तरेण तालुके य एष स्तन इवा बलम् वदे सेन्द्रयोनिः यत्रासो के शान्तो व्यवर्तते व्यपोर्यशीर्षकपाले भूरित्यग्नौ प्रतिष्ठते भुवगिति वायो सुवरित्याजित्ते मह इति ब्रह्मणि आप्नोति स्वराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरम् ब्रह्म सत्यात्मम् प्राणारामम् मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्व पृथिव्यन्तरिक्षम् ज्योतिषोपान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अनाद्यात्मम् प्राणो ज्ञानोपान उदानस्तमानः चक्षुश्रोत्रम् मनोवात्मक चर्ममागुंसग्रस्तावास्ति मज्जा एतदतिविधाय ऋषिरवोचत् पाङ्क्तम् वा इदगुम् सर्वम् पाङ्क्तेनैव पान्तग्रस्पृणोतीति ओमिति ब्रह्मा ओमितेदगुम् सर्वम् ओमित्येतदनुकृतिमस्म वा अप्योश्रावयेत्याश्रावयन्ते ओमिति सामानि गायन्ते ओगुंसोमिति शस्त्राणि शगुंसन्ते ओमित्यध्वर्यम् प्रतिकरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौते ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नः ब्रह्मोपाप्नवानीते ब्रह्मैवोपाप्नोति ऋतञ्जस्वाध्याय प्रवचने च सत्यञ्जस्वाध्याय प्रवचने च तपश्चस्वाध्याय प्रवचने च दमस्य स्वाध्याय प्रवचने च शमस्य स्वाध्याय प्रवचने च अग्नयस्य स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अधिदयस्य स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपो नित्य पौरुसृष्टिः स्वाध्याय प्रवचने एवेति नागौमौद्धल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिपृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि तविणगुंसवचसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनोचाचार्यो वन्दे वाजिनमनुशास्ते सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमागत्य प्रजातन्तुम् मा व्यवच्छेत्से सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्येन प्रमदितव्यम् स्वाध्याय प्रवचनाभ्याम् न प्रमदितव्यम् देवपितृकार्याभ्याम् न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्मागगुं सुचरितानि तानि त्वयोपास्यानि नो इतराणि एके चास्मच्छ्रेयागुंसो ब्राह्मणाः तेषां त्वयासनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धया देयम् श्रिया देयम् प्रिया देयम् भिया देयम् संविदा देयम् अथ यदि ते कर्म विचिकित्सा वा भृत्त विचिकित्सा वा स्यात् एतत्र ब्राह्मणाः सम्मर्हिणः युक्ताः अलोक्षा धर्मकामाः स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेताः अथाभ्याख्यातेषु एतत्र ब्राह्मणाः सम्मर्हिणः युक्ता आयुक्ताः अलोक्षा धर्मकामाः स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेदाः एष आदेशः एष उपदेशः एषा वेदोपनिषद् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।